म्यूट् मध्ये अस्मि महोदय.
अस्तु
करोतु भगिनि.
हा सुजाता भगिनी भवती वा करोतु तर्हि.
आम् आं महोदय. येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. ॐ नमस्ते महोदय. धन्यवादः.
धन्यवादः भगिनि.
नमस्ते.
धन्यवादः भगिनि. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानविषयः अस्ति सन्धिः. तत्र सूत्रसहित दृष्टिः इति स्वरूपमपि अस्य करपत्रमस्ति. तस्य करपत्रस्य पठनेन तत्र वयं गीताप्रवेशे ये प्रकाराः सन्ति, सन्धेः प्रकाराः, तेषां तत्र सूत्राणि कानि इति अपि, तत्र सूत्राणां किञ्चित् अवगमनम् अपि भवतु इति आशा. अतः तत्र एतत् करपत्रं पठन्तः स्मः. अस्तु, तर्हि तत्र नरेशमहोदय आरम्भं करोति वा?
करोमि. स्वरसन्धिः सूत्रसहितादृष्टिः. सूत्रेषु विभक्ति अर्थः. षष्ठी विभक्ति स्थाने, सप्तमी विभक्ति पूर्वकार्यम्, पञ्चमी विभक्ति परकार्यम्, प्रथमा विभक्तिः आदेशः, आगमः, नामकरणम्. अत्र
जानीमः खलु.
या अत्र दत्तमस्ति, षष्ठिविभक्तिः अस्ति चेत् तत् स्थानीय अस्ति, तत्र किमपि परिवर्तनं भवति. सप्तमी विभक्तिः अस्ति चेत् कार्यं तस्य पूर्वं भवति. पञ्चमी विभक्तिः अस्ति चेत् कार्यं तत् परं भवति. अपि च प्रथमा विभक्तिः अस्ति, तत्र आदेशः भवति, आगमः भवति, अथवा नामकरणं भवति. अग्रे पठामि.
पठतु महोदय.
प्रथम सवर्णदीर्घसन्धिः. अकः सवर्णे दीर्घः, अक् वर्णात् सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक एकादेशः स्यात्. अक् प्रत्याहार अ इ उ रि ऋ. अक पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदं सूत्रम्. इको यनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् अकः सवर्णे अचि पूर्वपरयोः, एकः दीर्घः संहितायाम्. अत्र अकः सवर्णे दीर्घः तत् सूत्रमस्ति, तत् विषये दत्तमस्ति. अक् वर्णात् परे सवर्ण अच् वर्णः अस्ति चेत् तत्र तस्य दीर्घः आदेशः भवति. यदि एकः अक् वर्णः अस्ति, परे कोऽपि स्वरः सवर्णस्वरः अस्ति, तत्र द्वौ स्थाने एकः दीर्घः आदेशः भवति. अक् प्रत्याहारे के सन्ति, अ इ उ रि ऋ अस्ति. अत्र किञ्चित् अनुवृत्तिः अस्ति, अनुवृत्ति अचि अस्ति एक पूर्वपरयोः संहितायाम्, अतः अनुवृत्तिसहितसूत्रं भवति. अकः सवर्णे, अचि पूर्वपरयोः एकः दीर्घः संहितायाम्. तत् अस्ति, अक्स् अस्ति चेत् तत्र परे अन्य कोऽपि सवर्ण स्वरः अस्ति, तस्य दीर्घः भवति.
हा अस्तु महोदय, तर्हि तत्र वयं पूर्वं दृष्टवन्तः खलु, तत्र अनुवृत्तिः नाम का, अपि तत्र अधिकारः नाम कः, एतद् अस्माभिः पूर्वं दृष्टं खलु, वयम् अवगतवन्तः खलु, नाम अनुवृत्तिः नाम पूर्वस्मिन् सूत्रस्य एकः भागः अस्मिन् सूत्रे तस्य अन्तर्भावः, तस्य अपेक्षा अस्ति इति खलु अनुवृत्तिः.
अधिकारः तु पूर्ण पूर्णसूत्र
पूर्णसूत्रम् अपि यत्र तत्र, हा अपि तत्र अधिकारः नाम तत्र तत् सूत्रं, यस्य अधिकारः अस्ति तत् सूत्रं बहुषु सूत्रेषु तस्य अधिकारः भवति इति अस्ति. हा अतः तत्र संहितायाम् इति तत्तु सन्धि
समीपं
सामीप्यं सूचयति इति कृत्वा तत्तु सन्धिकार्ये सर्वत्र संहितायां संहितायाम् इति एव भवति. अतः तत्र तस्य अधिकारः एव अस्ति. अत्र एकः पूर्वपरयोः इति यतोहि तत्र सन्धिकार्यं तत्र वर्णद्वयस्य स्थाने एकः वर्णः आगच्छति, दीर्घवर्णः आगच्छति इति कृत्वा तत्र पूर्वपरयोः, तत्र पूर्वपरयोः इति विभक्ति का तत्र
सप्तमी पूर्वपरयोः षष्टि,
षष्टि अपि रूपं दृष्ट्वा षष्टि अपि सप्तमी द्वयमपि साधु, किन्तु सन्धेः कार्यम् अत्र नाम दृष्ट्वा वदतु. तत्र भवान् एव पठितवान् तत्र षष्टिविभक्ति इत्युक्ते किं, सप्तमीविभक्ति इत्युक्ते किम् इति भवान् पठितवान् खलु.
अत्र तु सप्तमी अस्ति, अचि
किम्
अचि
अकः अकः इति
अचि सप्तमी अस्ति. अत्र अकः सवर्णे, अचि पूर्वपरयोः एकः दीर्घः संहितायाम्.
तत्र अकः इति पञ्चम्यन्तं, पञ्चम्यन्तम् इति भवान् पठितवान्, किन्तु पूर्वपरयोः इति तत्र विभक्ति का?
अहं चिन्तयामि सप्तमी अस्ति,
सप्तमी अत्र विभक्तेः महत्त्वम् अस्ति खलु तत्र.
पूर्वपरयोः स्थाने षष्टि अस्ति,
पूर्वपरयोः स्थाने एकः दीर्घः भवति खलु. अतः
षष्टि,
षष्टि षष्टि समीचीनम्. अस्तु धन्यवादः महोदय. अस्तु इदानीम् अग्रे तत्र हर्षदभगिनी अग्रे पठति वा?
आं महोदय, तुल्यस्य प्रयत्नं सवर्णं 119 तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नाः आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं तयोः वर्णयोः सवर्णसंज्ञा स्यात्. सवर्णसंज्ञा विधायकसूत्रं तुल्यः नाम सदृशः, आस्यम् अस् अधिकण्यत् नाम मुखे सञ्जायते यत् तुल्यं च तुल्यश्च तुल्यौ आस्य च आस्यञ्च प्रयत्नश्च आस्य प्रयत्नौ तुल्यौ आस्य प्रयत्नौ ययोः तुल्यास्य प्रयत्नं द्वन्द्वगर्भः बहुर्व्रीहि. तुल्यास्य प्रयत्नं प्रथमान्तं सवर्णं प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं तुल्यस्य प्रयत्नं सर्वर्णम् अत्र दत्तमस्ति सवर्णं किमिति यस्य वर्णस्य आस्य प्रयत्नं समानं ययोः वर्णयोः आस्य प्रयत्नं समानम् अस्ति तौ सवर्णम् इति उच्यते. वर्णद्वयं यदा मुखस्य समाने स्थाने समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति. कस्यचित् वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति. मुखस्य अन्तः कश्चन प्रयत्नः भवति आभ्यन्तरप्रयत्नः इति. अपि च मुखात् बहिः कश्चन प्रयत्नः भवति बाह्यप्रयत्नः इति. स्थानानि कण्ठ तालु मूर्धा दन्ताः ओष्ठौ इत्यादिकम्. आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः ईषत् स्पृष्टः ईषद् विवृतः संवृतः चेति. बाह्यप्रयत्नाः इत्युक्ते विवारः संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तः अनुदात्तः स्वरितः च इति. ध्येयं यत् सावरण्यार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः आभ्यन्तरप्रयत्नः सः एते एव द्वे तत्त्वे अपेक्ष्येते. बाह्यप्रयत्नः अस्मिन् विषये नैव अन्तर्भूतः. अनेन अपि च सर्वे अष्टादश अकाराः इत्येषां सावरण्यं भवति. एषां वर्णानां स्थानं कण्ठः आभ्यन्तरप्रयत्नः विवृतश्च. इत्युक्ते किं वदामि, सर्वं दत्तमेव अस्ति महोदय.
समीचीनम्.
इतोपि किं वदामि, इतोपि किं वदामि,
सर्वं समीचीनमेव अस्ति. प्रायशः तत्र अस्मिन् परिच्छेदे सर्वं स्पष्टमेव अस्ति, किन्तु पूर्वस्मिन् परिच्छेदे नाम तत्र तालु आदीनि स्थानानि इति इदानीं तस्य पठनं पुनः एकवारं कुर्मश्चेत् इदानीं लाभाय इति मन्ये, यतोहि तत्र
पठामि. तुल्यस्य प्रयत्नं सवर्णं 119. तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नाः आभ्यां मानाभ्यां यस्य वर्णेन येन वर्णेन सह तौल्यं तयोः वर्णयोः सवर्णसंज्ञा स्यात्. सवर्णसंज्ञाविधायकसूत्रं तुल्यः नाम सदृशः, आस्यम् अस् अधिकण्यत् नाम मुखे सञ्जायते यत्, तुल्यं च तुल्यश्च तुल्यौ, आस्यञ्च प्रयत्नश्च आस्य प्रयत्नौ, तुल्यौ आस्य प्रयत्नौ ययोः तुल्यस्य प्रयत्नं द्वन्द्वगर्भबहुव्रीः तुल्यस्य प्रयत्नं प्रथमान्तं सवर्णं प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम्. अग्रे पठितवती तत्र सर्वदत्तमस्ति महोदय, किं वदामि.
इदानीं पठितवती, किञ्चित् विवृणोतु तर्हि. तालु आदीनि स्थानानि
ययोः वर्णयोः उच्चारणस्थानाः स्थानानि समानानि सन्ति ते सवर्णं.
अपि आभ्यन्तरप्रयत्नाः अपि
आभ्यन्तरप्रयत्नः अपि समानः
भवेत्, तत्र अपि सामान्यं समानम् अथवा सामान्यं भवेत्. समानाः सन्ति चेत् आभ्यन्तरप्रयत्नाः अपि समानाः सन्ति चेत् तदा वयं वर्णद्वयं यदस्ति वयं वदामः वर्णयोः सवर्णसंज्ञा भवेत् इति वदामः. तत्र तुल्यं नाम अतौल्यं नाम
समानता
नाम तत्र समानता अथवा सामान्यं यथा वयं वदामः समानस्य भावः
सामान्यं
समानत्वं तथैव तत्र
सामान्यं समानत्वं समानता त्रयोपि
तथैव तत्र तुल्यम् अस्ति अतः तौल्यं अथवा तुल्यता अथवा तुल्यत्वम् इति भाववाचकप्रत्ययः अस्तु. तदनन्तरं सवर्णसंज्ञा विधायकसूत्रं नाम
डेफिनेशन्
तत्र किम् अस्ति इति तुल्यः नाम सदृशः तुल्यः इति सदृशः अस्तु. इदानीम् अग्रे आस्यम् नाम मुखे सञ्जायते यत् तत्र ण्यत् प्रत्ययः अस्ति ण्यत् प्रत्ययस्य तत्र अर्थः ण्यत् इति भवति चेत् तत्र कृयोगः ण्यत् कार्यं यत् तत्र यत् करणीयं तत् तद् अस्ति कार्यं तत्र ण्यत् इति तस्य अर्थः अणियर् इव एव करणीयं कार्यं अतः अत्र इदानीं पुनः तुल्यं च तुल्यश्च तुल्यौ तत्र द्वन्द्व खलु तुल्यौ नाम तत्र रामलक्ष्मणः रामः च लक्ष्मणः रामलक्ष्मणौ तदनन्तरम् आस्यं च प्रयत्नं च आस्य प्रयत्नौ तदनन्तरं तुल्यौ आस्य प्रयत्नौ
ययोः
तुल्यास्य प्रयत्नम् इति तत्र द्वन्द्वगर्भ बहुव्रीहिः तत्र अग्रे गत्वा एतत् सर्वं ज्ञास्यामः किन्तु द्वन्द्वसमासः नाम तत्र आस्य प्रयत्नौ इति अस्ति खलु तुल्यौ आस्य प्रयत्नौ तत्र
द्वन्द्वौ द्वन्द्व अस्ति तुल्यश्च आमाम्
तदनन्तरं ययोः आस्य प्रयत्नौ
समानं
इति ते सवर्णम् अतः तत्र तुल्यं नाम सदृशं तत्र यस्य यत्र आस्य प्रयत्नौ समानम् अस्ति ते तुल्यास्य प्रयत्नम् इति भवति तदेव सवर्णम् इति वदामः तुल्यास्य प्रयत्नं प्रथमान्तं यत्र प्रथमान्तम् अस्ति चेत् वयं जानीमः तत्र नामकरणम् इति एव भवति खलु अथवा आदेशः आगमः प्रथमविभक्ति तत्र नामकरणं सवर्णं प्रथमान्तं द्विपदमिदं सूत्रं तर्हि सवर्णम् इति तस्य नामकरणं तत्र तुल्यास्य प्रयत्नम् इति अर्थः सवर्णस्य भवेत् इति वार्ता खलु अस्तु सूत्रं स्वयं सम्पूर्णम् अत्र अन्यसूत्रस्य अनुवृत्तिः वा अधिकारः
नास्ति
स्वयं सम्पूर्णम् अस्ति अस्तु समीचीनम् अस्तु भगिनि अस्तु
धन्यवादः
यथा भवती उक्तवती तत्र अग्रिमे परिच्छेदे सर्वं स्पष्टतया लिखितम् अस्ति अतः तत्र आधिक्येन किमपि न वक्तव्यम् अस्तु समीचीनं धन्यवादः अस्तु अग्रे उमा मीनाक्षी भगिनी पठति वा
गुणसन्धि न ओके अदेङ्गुणः वन् वन् टु ह्रस्व अकारः एकारः ओकारः इत्युक्ते एङ् एषां वर्णानां गुणसंज्ञा स्यात् एङ् च गुणसंज्ञः स्यात् इति अच्च एङ् च अदेङ् अदेङ् प्रथमान्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रं स्वयं सम्पूर्णम् अत् एङ् गुणः अग्रे पठनं वा यावत्पर्यन्तम्
अस्तु भगिनि तत्र किञ्चित् अग्रे अपि पठतु तत्र अथवा एतत् किञ्चित् विवरणं किञ्चित् कृत्वा
ओके आद् गुणः ओ पुनः सूत्रम् ओके 6186 अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात् अत्र अचिपरे इत्यस्य इकिपरे इति फलति अर्थः यतः अकारात् अकारः चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः 6199 इत्यनेन अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि 6187 इत्यनेन सूत्रेण च आत् पञ्चम्यन्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रम् इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् एतत् उरण्ड्रपरः विषयः अस्ति ओके
किन्तु इदानीं तत्र अदेन् गुणः इति अस्ति किञ्चित् तत्र गुणसन्धिः इति भवती जानाति अतः किञ्चित् विवृणोतु प्रथमपरिच्छेदः ह्रस्वकारः
किं वदति अथ् एन् एते किं वर्णाः गुणवर्णाः इति नामकरणमस्ति अत्र
के वर्णाः
अकार एकार ओकार एन् प्रत्याहारे ए ओ आगच्छति
ह्रस्वकारः एकारः ओकारः
हा अत् इत्युक्ते केवलं ह्रस्व अकारः आगच्छति तत्र
हा तत्र अत् इत्युक्ते तत्र केवलं ह्रस्व अकारः समीचीनं
एन् तत्र तु एन् प्रत्याहारे ए ओ इति वर्णद्वयमस्ति
वर्णद्वयं भवति हा समीचीनं भगिनि
वर्णाः त्रयः
किं भगिनि
गुणवर्णाः अकार
ओकार
ओकार इति निर्णीतमस्ति अदेन् गुणः सूत्रस्य आधारेण तदनन्तरम् आगच्छति आद्गुणः इति अन्यसूत्रं तत् गुणकार्यविषये दत्तमस्ति इति अहं मन्ये गुणकार्यं कस्मिन् सन्दर्भे भवति आद्गुणः सम्पूर्णसूत्रं नास्ति
पुनः एकवारं पठित्वा वदतु तत्र आद्गुणः
आद्गुणः अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात् अत्र अचिपरे इत्यस्य इकिपरे इति फलितः अर्थः यतः अकारात् अकारः चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः इत्यनेन एकनिमिषं एतस्य अर्थः किञ्चित् अवगच्छामि तदनन्तरम् अग्रे गच्छामि वृद्धिराशि अत्र अत्र अचिपरे इति तु उक्तमस्ति परन्तु अकारस्य परे अकारः अस्ति चेत्
भगिनि एकनिमिष प्रथमतया प्रथमतया उमामिनक्ष भगिनि प्रथमतया तत्र सन्धिकार्यम् अत्र भवति तर्हि तत्र परकार्यम् अपि पूर्वकार्यं नाम प्रथमवर्णः अपि द्वितीयवर्णः अस्ति खलु नाम ययोः मेलनं भवति तर्हि प्रथमवर्णः कः
तदनन्तरं पुनः अकारः आगच्छति अतः पूर्वपरयोः किं
भगिनि न तत्र अवर्णात् अचि परे इति अस्ति तस्य
ओके 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 अवर्णात् अचि परे ओके अत्र तु
तस्य अर्थः कः
इत्युक्ते समानवर्णः न भवितव्यम्
न न किन्तु केवलं तत्र तत् पठित्वा किम् अवगच्छामः तदनन्तरं किं फलितार्थः इति तदनन्तरं किन्तु अवर्णात् अचि परे इति अस्ति चेत् तर्हि
अत्र अवर्णात् इत्युक्ते अकारविषये वदति वा इति अर्थम् आगच्छति
अवर्णः अवर्णः अतः तत्र तर्हि तत्र
वर्णः अवर्णः इति वदामि चेत् इट् इस् नाट् अ वर्ण ओके अत्र केवलम् अकारविषय अस्ति वा अवर्णात् अचि परे
अवर्णात् अवर्णात् इति तत्र अवर्णात् इति विभक्ति का तत्र
पञ्चमी
पञ्चमी
केवलम् अकारविषये अस्ति वा मम प्रश्नः तत्र अस्ति
तत्र अकारात् इति पञ्चमी अस्ति खलु
अकारात् परे अच् वर्णः अस्ति चेत् पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात् भवितुम् अर्हति परन्तु
तत्र आद् तत्र अवर्णात् इति अस्ति पञ्चमी खलु तर्हि अवर्णात् इति पञ्चमी खलु पञ्चमी तत्र पूर्वकार्यं वा परकार्यं वा
पूर्वकार्यं
पूर्वकार्यं नाम किं परकार्यं नाम किम्
ओ ओके यत्र कार्यं भवितव्यं तत् पूर्वं यद् निमित्तम् अस्ति तदस्ति
तत्र परकार्यं पूर्वकार्यं तेषाम् अर्थः भिन्नः नाम तत्र यथा भवती वदति इति नाम तत्र यस्य परं कार्यमस्ति तत्र यस्मात् परं कार्यमस्ति तदस्ति परकार्यं साक्षात् कार्यात् पूर्वम् अस्ति चेत् तदस्ति परकार्यं कार्यं परमस्ति चेत् परकार्यं नाम तत्र यदि वर्णद्वयोः मेलनमिति चिन्तयामः प्रथमवर्णः भवति परकार्यं द्वितीयवर्णः भवति पूर्वकार्यं यतोहि कार्यं मध्ये भवति खलु
मध्ये
न न किन्तु कार्यं साधारणतया वयं चिन्तयामः द्वयोः मेलनेन तर्हि कार्यं मध्ये भवति इति चिन्तयतु तर्हि पूर्वकार्यम् इति अस्ति परकार्यम् इति अस्ति तत्र परकार्यमिति प्रथमवर्णः पूर्वकार्यमिति द्वितीयवर्णः तर्हि गुणसन्धिसन्दर्भे तत्र प्रथमवर्णः किं कः भवितुम् अर्हति
अकारः
आकारः अपि भवितुम् अर्हति खलु
न अत्र तु अकारः इत्युक्ते ओके अवर्णस्य अष्टादशभेदः
इति अस्ति केवलम् अकारः इति नास्ति अत्र
न केवलम् अकारः नास्ति अकारस्य अयुन् ऋलृ तत्र तु अ यद् वयं वदामः तत्र सम्पूर्ण भेदाः
तदेव अत्र अस्ति अतः तत्र अवर्णात् इति तर्हि तत्र प्रथमवर्णः तत्र अकारः अकारस्य कोऽपि किमपि अकारः वा आकारः वा भवितुम् अर्हति
तदनन्तरं कृतं नास्ति न
किं भगिनि
अत्र अवर्णात् अचिपरे तत्र अ यद् लिखितम् अस्ति तत्तु अत् इवम् एव नास्ति तत्र
अष्टादशवेदाः
सम्पूर्णाः
इति अस्ति भगिनि इति इदानीम् अचि इति अस्ति तर्हि तत्र अचि नाम तत्र विभक्ति का
सप्तमी
सप्तमी तर्हि तत् किमस्ति
किमपि अच् वर्णः
न किन्तु तत् कुत्र भवति पूर्वकार्यं वा परकार्यं नाम प्रथमवर्णः वा द्वितीयवर्णः वा
द्वितीयवर्णः अवर्णात् परे
तर्हि अवर्णात् इति प्रथमवर्णः कोऽपि अवर्णः भवेत् अचि नाम द्वितीयवर्णः किमपि तत्र स्वरः भवेत्
भवितुम् अर्हति इति लिखितमस्ति
भवेत् कोऽपि स्वरः भवेत् किं भवति तदा
पूर्वपरयोः स्थाने एकादेशः स्यात्
इति आद्गुणः इति केवलं तस्य सूत्रस्य पठनेन एतत् अवगच्छामः इदानीम् अग्रे अत्र
इदानीम् अग्रे अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात् अकारः चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः इत्यनेन
इदानीं तस्य अर्थः कः इति वदतु
इत्युक्ते अवर्णात् अचि परे तत्र तु अच् वर्णाः तत्र यदा अकारः आगच्छति तदा बाधकसूत्रम् आगच्छति न अकः सवर्णे दीर्घः
तर्हि तत्र इकि इति किमर्थं फलितः
तदा तस्मिन् सन्दर्भे अचि परे स्थाने इकि परे भवित्
तर्हि कः वर्णः द्वितीयवर्णः किं न भवितुम् अर्हति तत्र अकः सवर्णे दीर्घः इत्यनेन द्वितीयवर्णः किं न भवितुं कः न भवितुम् अर्हति
किं द्वितीयवर्णः अकारः न
भवितुम्
अर्हति
इति एव
रिसल्टेण्ट् किम् अच् स्थाने इक् एव आगच्छति अतः फलितार्थः एवं भवति इकि परे
तदनन्तरं तदनन्तरम् इक् इत्युक्ते किं किम् अस्ति
किमस्ति प्रश्नः
इक् इक् प्रत्याहारे
इक् प्रत्याहारे इ ऊरुल् अस्ति पुनः बाधकसूत्रमेकम् आगच्छति वा
केवलम् अकारः गतः खलु इदानीं द्वितीयवर्णः अकारः मास्तु इति एव उक्तम् एतावत् खलु किन्तु इक् इत्युक्ते केवलं सम्पूर्ण अच् अच् प्रत्याहारे केवलम् एकमेव वयं त्यक्तवन्तः अवर्णः एव त्यक्तवन्तः किन्तु अन्ये वर्णाः सन्ति अतः तत्र
तेषां कृते अन्यानि सूत्राणि आगच्छन्ति
इदानीम् अग्रे पठतु अकारात्
अकारात् एच् चेत् कार्यं बाधितं केन सूत्रेण वृद्धिरेचि इत्यनेन सूत्रेण च
अतः तर्हि इदानीं वदतु अकः सवर्णे दीर्घः इत्यनेन इति सूत्रेण किं कः कः अवर्णगतम् इत्यनेन एच् प्रत्याहारे ये वर्णाः सन्ति ते सर्वे
ये वर्णाः एच् प्रत्याहारे सन्ति ते अपि गताः
अतः
एच् प्रत्याहारे ए ओ ऐ औ सन्ति ते अपि निष्कासितानि
उत्तमं
अतः अवर्णः निष्कासितम् एच् वर्णाः निष्कासिताः अतः अवशिष्टाः किम् इक् एव
इक् एव अतः एव तस्य फलितार्थः तु अचि इति सप्तमी तथैव इक् इत्यस्य इकि परः परे इति सप्तमी हा परे इति फलितार्थः भवति खलु इदानीं हा अग्रे
आत् पञ्चम्यन्तं गुणः प्रथमान्तं द्विपदं सूत्रम् इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः इदानीम् अनुवृत्तिसहितसूत्रमस्ति आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् आत्
तर्हि पूर्वं किम् आसीत् सूत्रं यद् दत्तमस्ति तत्तु आत् गुणः इति एव सूत्रम् इदानीं मध्ये वयं किं कृतवन्तः अनुवृत्तिः अपि
अधिकारः
तेषां तत्र इको यणचि इति सूत्रस्य एकः भागः अचि इति भागः तस्य तर्हि अचि इति एव तत्र स्थापितम्
अनुवृत्ति स्वीकृतं
तर्हि आत् मध्ये अचि इति आगतम् आत् अचि गुणः इति आगतं तदनन्तरम् एकः पूर्वपरयोः इति तदपि वयं स्थापितवन्तः अचि पूर्वपरयोः एकः
गुणः अनन्तरं गुणः
संहितायां नाम सन्निहितः यदा भवन्ति संहितायां तदा एतत् पर भवति अपि वयं जानीमः तत्र अचि इति यदस्ति किन्तु तस्य फलितार्थः अस्ति इकि इति एव अतः तत्र साक्षात् सूत्रस्य अर्थः आत् इकि पूर्वपरयोः एकः गुणः संहितायाम् आत् इकि परे पूर्वपरयोः एकः गुणः संहितायाम् इति
पाणिनिमहोदयः बहु सम्यक् कन्फ्यूषन् क्रियेट् कृतवान्
कः
पाणिनिमहोदय किमर्थं सः एवं न उक्तवान् हा इकि परे तत्र तु समाधानम्
सः तु तत्र किं तत्र तेन किम् इष्टं लाघवम् इष्टं खलु लाघवं नाम ह्रस्वं सर्वं ह्रस्वं भवेत् यतोहि मनसि ह्रस्ववाक्यमस्ति चेत् लघुवाक्यमस्ति चेत् दीर्घवाक्यं मास्तु लघुवाक्यं भवेत् इति खलु नाम तत्र लघुवाक्यं तत्र इष्टं किम् इत्युक्ते भगिनी तत्र यत् वदामः यत् अवगच्छामः तयोः मध्ये भेदः वर्तते खलु
सत्यं
हा अतः यत् वदामः तेन किञ्चिदेव किञ्चित् यदस्ति तस्य वदनेन सर्वं स्पष्टं स्यात् तर्हि तत्र अवगमनं भवेत् इति यदि एतत् सर्वं वक्तव्यं चेत् तत्र तदा किं भवति एतत् सर्वं वयं मनसि न स्थापितुं शक्नुमः यथा लिखितं किन्तु अवगच्छामश्चेत् आद्गुणः इति तस्य श्रवणेन एतत् सर्वम् अस्माकं मनसि आयाति अतः एतत् तेन इष्टम् इदानीं पश्यतु तत्र इदानीन्तने काले तत्र जनाः बहु दीर्घ किम् एस्से सर्वं लिखन्ति के पठन्ति तत् सर्वं खलु समये एव नास्ति किन्तु अपि विचारितं वा न विचारितम् इति अपि वयं न जानीमः किन्तु अत्र यद् लिखितमस्ति तत्र बहु किमपि विचारः विचारं कृत्वा तदुक्तमस्ति, अतः तत् मवद् महत्त्वम् अस्ति. अस्तु, अग्रे उरण् रपरः तदपि वदतु भगिनि, तदनन्तरं तत्र अग्रे उषां भगिनी पठेत्. उरण् रपरः उमा मेनक् भगिनि
अहं पठामि वा अन्य कोऽपि? अहं तु चिन्तितवती भवान् ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः स्यात्. ग्रेट्. ऋकारेण त्रिंशत् प्रकारः ऋकारः भवति इति बोध्यम्. रह परो यस्य सः रपरः, उः षष्ट्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम्. स्थानेन्तरतमः 1150 इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अतः अनुवृत्तिसहितसूत्रम् उः स्थाने अण् रपरः. ग्रेट्. ओके. उहु स्थाने, अत्र उहु एतस्य अर्थं किम् आगच्छति? किमपि बहुवचनमस्ति. ओके. ऋकारस्य स्थाने यदा अण् आदेशः भवति. ओके. अस्माकं तु इको यणचि इति सूत्रं वयं दृष्टवन्तः पूर्वम्. तत्र अण् प्रत्याहारः अस्ति. अण् प्रत्याहारे ऋल् वर्णद्वयम् आगच्छति. तत्र अकारः आदेशस्थाने आगच्छति, ऋकारस्य स्थाने. ऋल् वर्णयोः स्थाने अ आदेशः भवति, परन्तु तत् तो अर्धम् इति अहं चिन्तयामि. तदा सः अण् सदा रपरः स्यात्. अतः तत्र रपरः स्यात् ऋकारेण त्रिंशत् प्रकारः ऋकारः भवति इति बोध्यम्. ओके. कारणं ऋल् वर्णयोर् किं सावर्ण्यं वाच्यम् अस्ति. अतः ऋकार अथवा लकारस्य स्थाने अकारः आदेशः भवति, परन्तु तस्य रपरः अपि भवति. अतः रः परो यस्य सः रपरः. उः षष्ट्यन्तम् एतत् अहं सम्यक्तया न अवगतवती. उः षष्ट्यन्तम् अत्र
ऋकारस्य षष्टिविभक्ति एकवचनं पित् इति स्थाने पितुः.
ओके ओके ओके. षष्ट्यन्तं ऋकारस्य षष्ट्य, परन्तु अत्र तु रेफः अस्ति न?
हा, तत्र रेफः किमर्थम् अस्ति चेत् तत्र विसर्गसन्धिः इति कृत्वा. उहु योगः अण्
नो, उहु इत्यस्य विभक्ति तु षष्टि आगच्छति, परन्तु कथं एतस्य गुरुः एवमस्ति वा?
उहु इति षष्ट्यन्तं, षष्ट्यन्तं नाम स्थाने.
कस्य वर्णस्य उहु इति षष्टि विभक्ति आगच्छति? ऋकारस्य वा?
आम् आं भगिनि. पितृ इत्यस्य कृते पितुर् इति वयं वदामः खलु. पितृ इत्यस्य कृते ऋकारस्य षष्ट्यन्तं देर् पितुर् उस्.
हा, तत्तु सत्यम्. अतः ऋकारस्य ऋवर्णः एव अस्माकम् अत्र. ओके. ऋकारस्य स्थाने उः आगच्छति षष्ट्यन्तम्. ओके. तदनन्तरम् अण् प्रथमान्तम्, अन् प्रथमान्तं हा ओके अन् इत्युक्ते प्रत्याहारः रपरः प्रथमान्तं त्रिपदमिदं सूत्रं तत्र स्थानेन्तरतमः सूत्रात् स्थाने इति अनुवृत्तिः अतः उः स्थाने अन् रपरः इत्युक्ते ऋकारस्य स्थाने ऋकार इत्युक्ते ऋ ल द्वयमपि आगच्छति त्रिंशत् वर्णाः तस्य स्थाने अण् रपरः अण् अत्र अण् इत्युक्ते अ इ उ ऋ ल
न केवलम् अण् अ इ उ अण् इति एव अण् खलु
रपरः आ ओके रपरः यदा अहम् एवं विभज्यं करोमि र इत्युक्ते पुनः प्रत्याहारः आगच्छति तत्र न
अस्तु भगिनि तत्र प्रहेश तत्र भगिनि उषा भगिनि भवती एव इदानीं वदतु भगिनि भवती एव वदतु
उरण् रपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति यदा अण् आदेशः भवति अत्र अ इति वयम् आदेशः कृतः चेत् तदा सः अण् सदा रपरः स्यात् तस्य कृते रेपः परः स्यात् इति सूत्रं वदति
रपरः नाम यस्य परः अथवा यस्मात् परः रेपः अस्ति सः रपरः
अत्र अण्
इति रपरः भवेत्
भवेत् इति
अण् अनन्तरं रेपः
रेपः भवति
अन्नस्य अण् इति अस्ति तस्य अनन्तरं रेपः भवेत्
सूरण् रपरः इति ऋकारस्य गुण गुणसन्धि कृते अत्र दत्तं ऋकारस्य स्थाने किं कार्यम् इति दत्तं यदा अण् आदेशः भवति स्थाने अन्तरतमः इत्यनेन वयम् अण् आदेशः भवति अण् आदेशः कृतः चेत् तदा सः अण् रपरः स्यात् रपरः स्यात् रेपः परः स्यात् इति सो अर् इति भवति ऋ उः स्थाने इति ऋकारस्य स्थाने इति वयं
षष्ट्यन्तम्
षष्ट्यन्तम् इत्यनेन ऋकारस्य स्थाने इति
ऋकारस्य स्थाने षष्ट्यन्तं स्थाने इति जानीमः उः इति तर्हि रेपस्य ऋकारस्य स्थाने इति एव उः षष्ट्यन्तं तदा
सदा देन् अण् इति आदेशः भवति यदा अण् उः स्थाने स्थाने अन्तरतमः इत्यस्मात् वयं ऋकारः वडुविषये कण्ठ न नाट् कण्ठ मूर्धन्य देन् अ इ उण् देन् कण्ठ हौ डु विसे दट् स्थाने अन्तरतमः सदृशतम सदृशतम
आगच्छति
अनुवृत्ति अन्तरतमः
न स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अन्तरतमः इट् मीन्स् लैक् सदृशतम आदेशः स्थाने इत्येव अनुवृत्तिसहितम् आयाति बट् ऋकारस्य स्थाने अण् आदेशः भवति इति कृते कस्य वर्णस्य आदेशः भवति इति कृते देन् सदृशतम आदेशः इति कण्ठ अकारः एव वयं
स्वीकुर्मः नाम तत्र इ इति न स्वीकुर्मः उ इति न स्वीकुर्मः अर् तर्हि फलितार्थः अर् इति भवति अथवा अल्
आम् महोदय
तर्हि तत्र पुटसङ्ख्या तत्र पञ्चदश पश्यामः तत्र गीताप्रवेशे तत्र तत्रैव गुणसन्धेः उदाहरणानि वयं पठितवन्तः खलु?
आम् आम् आं महोदय.
हा तर्हि तद्दृष्ट्वा तत्र यदि विवरणं कुर्मः तर्हि तत्र सुलभः भवति इति मन्ये.
मम ऋणं मम योगः अयोगः ऋ योगः णं मम योगः अर्णम् इति भवति. मम ममर्णम् इति भवति.
तर्हि तत्र प्रथमवर्णः तत्र
अकारः, द्वितीयवर्णः ऋकारः, मम इत्यस्य अन्तिमवर्णः अकारः, ऋणम् इत्यस्य प्रथमवर्णः ऋ, सो अकारयोगः ऋकारः अर् इति भवति.
तत्र केन सूत्रेण इत्युक्ते तत्र उरण् रपरः सूत्रेण एतत् परिवर्तनं भवति. तत्र नाम तत्र वयं यद् उमा मीनाक्षी भगिनी पठितवती तत्र आद् गुणः इति, तत्र आत् अचि पूर्वपरयोः एकः गुणः संहितानाम् इति पठितवती. तत्र अचि इति स्थाने फलितार्थः तु इकि इति खलु, इकि. तर्हि आत् इति तत्र प्रथमवर्णः कोऽपि
आकारः अथवा आकारः,
किन्तु इकि इति तेन तत्र इकारः उकारः ऋकारः लृकारः भवितुम् अर्हति. द्वितीयवर्णः सन्धे तत्र सन्धौ, किन्तु इकारः उकारः तत् किं भवति इति जानीमः. तत्र अन्यत् सूत्रं किमपि न अपेक्षितं, केवलं गुणः इति तेन एव सर्वम् आगतमस्ति. यतोहि तत्र गुणः तत्र एकारः ओकारः इति उक्तं तत्र पूर्वमेव खलु गुणः. किन्तु केवलं तत्र ऋकारः लृकारः आगच्छति चेत् अत्र अन्यस्य सूत्रस्य आवश्यकता अस्ति. तर्हि तत्र ऊरण्ड्रपरः इति सूत्रेण किं भवति तत्र अयोगः ऋकारः
अर् इति भवति.
अर् इति भवति नाम रपरः, रपरः 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 नाम अनन्तरं, अतः रपरः भवति इति अस्ति. उमा मीनाक्षी भगिनी इदानीं तत्र सम्यक् वा नाम तत्र वयं यत् उदाहरणं पठितवन्तः अपि यत् सूत्रं वदति तयोः तत्र अन्वयः भवति इति.
उहु यद् लिखितम् अस्ति केवलं ऋकारस्य विषये अस्ति, लकारस्य विषये उहु न कथम् आगच्छति?
तत्र ऋकारस्य स्थाने ऋ अस्ति, अर् अस्ति, रेपः अस्ति. इदानीं भवत्याः प्रश्नः ऋकारस्य स्थाने इति तत्र एतत् न जानामि भगिनि अहम्. अन्य कोऽपि जानाति वा तत्र?
अहं चिन्तयामि रपरः इत्युक्ते अल् कथम् आगच्छति, लकारः कुत्र कुत्र अत्र तु रेफस्य ओके उल्लेखम् अस्ति परन्तु
there is another sutra bhagini where it says ralayor savarna or something like that.
Rale varnaye savarnem vachyam
not rul rala api
rala tatra savarnem asti va.
Am bhagini I don't know the number but I know that there is a sutra like that.
लु अपि अस्ति खलु तत्र, अतः अल् अपि आगच्छति लु
प्रश्नः,
लुकारः अपि अस्ति खलु,
अतः एव प्रश्नः केन सूत्रेण तद् भवति इति, अतः एव प्रश्नः. तत्र न जानीम
जस्ट् लैक् बाबयोर् अभेदं रालयोर् अभेदम् अपि अस्ति महोदय.
ओ अस्तु भगिनि, अस्तु 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 अस्तु. अतः तत्र तेन केवलं तद् यदि स्मरामः तर्हि तत्र तेन सूत्रेण एतत् सूत्रम् उरण्ड्रपरः तेन पर्याप्तं भवति. तर्हि यत् ऋकारस्य स्थाने किम् उक्तं तेनैव ऋकारस्य अपि किं कार्यम् इति अवगन्तव्यमस्ति इति खलु.
ओके,
इति भवती वदति खलु उषा भगिनी.
ओ आं महोदय,
रलो व्युपाद्
व्यदुपदात्
रलो
व्युपुदात् हलादेः सौश्च सैश्च
सञ्चं सञ्चं समिष्टम् 1 2 26 अस्तु. ओ अस्तु 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 अस्तु. तर्हि तत्र हल् आदेः अस्तु पञ्चमी एकवचनम् अस्तु. हा अस्तु, तर्हि तत्र प्रायशः तत्र हा एतद् हा तस्य अन्यस्य सूत्रस्य अपि आवश्यकता प्रायः अस्ति इति चिन्तितवन्तः. समीचीनम्, अस्तु. अग्रे सरामः तर्हि तत्र पुनः तत्र प्रायशः तत्र पूरयामः तत्र किं वाक्यद्वयं किमपि अत्र स्थापयामः तर्हि. इदानीं तत्र वृद्धिसन्धिः इति तस्मिन् विषये पठति वा भगिनि उषा
भगिनी?
महोदय किञ्चित् वदामि अत्र.
वदतु भगिनि, वदतु.
उहुस्थाने अण्ड्रपरः अस्ति न, तत्र उहुस्थाने प्रथमं तु अ आगच्छति, अनन्तरं रपरः र प्रत्याहारः अस्ति खलु, र तथा ल, अतः तत्र स्थानान्तरतमसे रु स्थाने र आगच्छति, लु स्थाने ल आगच्छति इति न वा?
न जानामि भगिनि,
प्रत्याहारः अस्ति खलु, परः र प्रत्याहारः आगच्छति.
र प्रत्याहारः इत्युक्ते र इति कथं प्रत्याहारः भवति?
र प्रत्याहारे ल र तथा ल एता रे तथा लकारः स्तः.
तत्तु ऋक् भवेत् खलु?
न न महोदय, र प्रत्याहारः अस्ति चेत् वर्णद्वयम् अस्ति तत्र, रे लकारः र प्रत्याहारे.
र प्रत्याहारः नास्ति, र तु कोऽपि प्रत्याहारः नास्ति.
आमां र प्रत्याहारः अस्ति तत्र, रे तथा ल वर्णद्वयम् अस्ति, तत्तु अहं कान्फिडेण्ट् अस्मि महोदय, र
प्रत्याहार
प्रत्याहार अस्ति खलु.
आम् एकनिमिषं,
हयवरक् लण् हयवरक् आणि लण् मध्ये अस्ति म्हणतात ना मॅडम, हयवरक् आणि लण् त्याचा र आणि ल हा त्यांचा मिळून र प्रत्याहार बनतो.
किन्तु तत् रण् इति वक्तव्यं खलु, तत्र केवलं र इति किमर्थं
महोदय? महोदय निरञ्जन महोदय, भवान् अष्टाध्यायी उद्घाटयतु, तत्र उरण्ड्रपरः सूत्रम् उद्घाटयतु.
अस्तु 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 अस्तु
अस्तु. अत्र द्वे प्रत्याहारौ स्तः, अण् अ आ इ उ, द्वितीयं र रेप् अण्ड् लकार तत्र पश्यति.
ओ सत्यं भगिनि, अस्तु 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 सत्यं भगिनि.
अहं निश्चयेन जानामि महोदय तत्र किम् अस्ति.
धन्यवादः धन्यवादः भगिनि. अतः तत्र
शृणोतु, तत्र किम् अस्ति महोदय, हयवरट् लण्
प्रत्याहारे किमपि वर्णान् वर्ण आदौ भवेत् परन्तु अन्ते हलन्तवर्ण एव भवेत् खलु. वयं जानीमः केवल ल ल इत्यत्र अन्तर्भूत अस्ति, अन्यत्र सर्वत्र तु उच्चारणार्थ एव. मीन्स यू नो जहाँ पे हम लोग जब वर्ण उच्चारण करते हैं तो हल में एक लंड वाला वो जो ल है वहाँ पे अवर्ण अंतर्भूत अस्ति, अनुनासिक अस्ति अवर्ण. बाकी सर्वत्र उच्चारणार्थ अवर्ण अस्ति. इफ यू गो फॉर र एंड ल एंड फॉर्म अ सूत्रम, आई डोंट नो वेदर आई एम एबल टू एक्सप्लेन. सो
सत्यमेव तत्र
रेफ अस्ति, तस्य अनन्तरं टकार अस्ति, तत्तु इत्संज्ञा भवति, अनन्तरं लकार, अनन्तरं ल तेन स्वीकरोति. ल मध्ये अनुनासिक अ अन्तर्भूत अस्ति, अतः र इति एव प्रत्याहार. तथा लकार अस्ति. अतः महोदय यदा यदि वयं वदामः र तत्र रेफ तथा लकार द्वयमपि भवति, तो लकारस्य साधर्म्य सावर्ण्यं रु रु इत्यस्य सह अस्ति, इत्यनेन सह अस्ति, तथा लु इत्यस्य सावर्ण लकार लकारस्य लकारेण सह अस्ति. अतः तत् उरण और अपरह से अर और अल हो जाते हैं. I don't know whether, I don't know how to explain it, but this is the theory behind it.
Astu, astu, bhagini. Haan, samichinam. Tarhi tatra Uma Meenakshi bhagini bhavatyaha prashnasya uttaram harshada bhagini dattavati nama tatra uran raparaha teneva sutrena tatra rukarasya sthane tatra अयोगः ऋ अर् भवति, अयोगः ऋ अल् भवति.
हा, कारणं ऋकारस्य आ यदस्ति तत् इत्संज्ञक उच्चारणार्थ नास्ति.
किं किं
लण् मध्ये यः अ अस्ति सः केवलम् उच्चारणार्थं नास्ति, तत् इत्संज्ञक अ अस्ति.
सत्यं सत्यं भगिनि, तत् तत् भिन्नमस्ति, किन्तु तत्र भगिनि भगिनि एकनिमिष, तत्र यत् तत्र हर्षदा भगिनी उक्तवती नाम पाणिनि तत्र अष्टाध्यायी डाट् काम् मध्ये यदि उरण् रपरः तस्य विवरणं पश्यामः तत्र अण् इत्युक्ते अ अ इ उ उ इति वर्णाः सन्ति, अपि र इत्युक्ते पुनः प्रत्याहारः अस्ति, तत्र ऋ ल इति तेषु अन्तर्भूतौ. हा इति एकनिमिष भगिनि, एकनिमिष भगिनि, भगिनि भगिनि एकनिमिषः एकनिमिषः, यद् भवती उक्तवती तस्य अवगमनं किञ्चित् कुर्मः. भवती बहु किमपि उक्तवती,
उक्तवती परन्तु अहं विवरणं दातुं न शक्नोमि, भवान् विवरणतु.
अस्तु अस्तु, प्रयत्नं कुर्वन् अस्मि. हा तर्हि
महोदय
तत्र हा वदतु भगिनि, वदतु निवेदितं.
तत्र उदाहरणमपि अस्ति, तव अधिक लुकारः तवल्कारः अल् आगच्छति.
हा उदाहरणमस्ति भगिनि, किन्तु कथं सूत्रेण इति इति अस्माकं प्रश्नः. नाम कार्यं किम् इति जानीमः, तत्र कार्यं किं भवति इति जानीमः, यतोहि उदाहरणानि पश्यामः, किन्तु सूत्रेण एतत् कथम् उत्पद्यते, तत्र एतदेव करणीयम् इति कथम् अवगच्छामः इति अस्माकं प्रश्नः खलु. निवेदितं भगिनि, नाम तत्र किं कुर्मः, तत्र गुणसन्धेः सन्दर्भे किं कुर्मः इति जानीमः, किन्तु तत्र सूत्रम् एतदेव वदति इति अस्माभिः अवगन्तव्यमस्ति. अतः तत्र उरण्परः इत्येन सूत्रेण एव यथा भवती उक्तवती अपि हर्षदा भगिनी वदति उरण्परः तेनैव सूत्रेण पर्याप्तम्. अतः तत्र स्वरूपमहोदयस्य करपत्रे अन्यत् किमपि आवश्यकता नास्ति, उरण्परः इति एव पर्याप्तम् अस्ति. अतः सः अन्यत् सूत्रं न स्थापितवान्. किमर्थम् इत्युक्ते तत्र उरण्परः तत्र उः इति तत्र षष्टि रेपस्य षष्टि रकारस्य तत्र हा रेपस्य षष्टि अण् इति प्रत्याहारे तत्र अ आ इ ई उ उ तत्र उः इति ऋकारस्य षष्टि उः इति अस्ति. तर्हि तदनन्तरं तत्र अत्र दत्तमस्ति तत्र ऋवर्णस्य लृवर्णस्य आदेशरूपेण विधीयमानात् अवर्णात् ईवर्णात् उवर्णात् अनन्तरं नित्यं रेपः अथवा लकारः विधीयते इति दत्तमस्ति. नाम रेपस्य स्थाने अकारः अनन्तरं रेपः अस्ति चेत् तयोः स्थाने अर् इति भवति, अकारः तदनन्तरं लृकारः अस्ति चेत् तयोः स्थाने अल् इति भवति इति एव अत्र उक्तमस्ति उरण्परः इति. अतः तत्र लकारस्य भिन्नं सूत्रं न अपेक्षितम् इति वार्ता तावदेव. तर्हि उषा भगिनी किमपि वदति वा तत्र अथवा हर्षदा भगिनी?
तदेव तदेव महोदय.
दत्तम् एवमेव लृवर्णस्य स्थाने यत्र अण् आदेशः अण्वर्णस्य आदेशः भवति तत्र तस्मात् अण्वर्णात् नित्यं लकारः अपि विधीयते
इति दत्तमस्ति. अतः तत्र अतः अन्यस्य सूत्रस्य आवश्यकता नास्ति.
नास्ति आवश्यकता नास्ति. लघुसिद्धान्तकपि लघुसिद्धान्तकौमुदी अपि तत्र देर् महोदय. ऐ एम् ट्रैङ्ग् टु गेट् द बुक्. अष्टाध्यायी इस् गुड्.
अत्र प्रायशः तत्रापि तत्र सिद्धान्तकौमुदी रु इति त्रिंशतः सन्नेत्युक्तं तत्स्थाने योण् स रपरः सन्नैव प्रवर्तते तत्रानन्तरं यात् कृष्णर्द्विरित्यत्रार् तल् तवल्कारः इत्यत्र अल् अचो रहाभ्यां द्वे इति पक्षे द्वित्वम् इति अस्ति. हा एतदपि अष्टाध्यायी मध्ये एव अस्ति भगिनि तत्र
सिद्धान्तकौमुदी अपि अस्ति. ऋ इति त्रिंशतः संज्ञेत्युक्तम् तत्स्थाने यः अण्स रपरः सन्नेव प्रवर्तते कृष्णर्दिः इति ऋकारस्य स्थाने तवल्कारः इति लकारस्य
अतः तत्र अतः एतत् सूत्रं पर्याप्तमस्ति. नूतनसूत्रस्य आवश्यकता नास्ति. अतः समीचीनम्. अतः तत्र गुणसन्देहे सूत्रं किं किम् इति वयं दृष्टवन्तः. अस्तु समीचीनं. तर्हि इदानीं वृद्धिसन्धिः इति विषयः भवतु. तर्हि उषा भगिनी अग्रे पठति वृद्धिसन्धिः.
अस्तु महोदय. वृद्धिरादैच् आकारः ऐकारः औकारः एच् येषां वर्णानां वृद्धिसंज्ञा स्यात्. वृद्धिः प्रथमान्तम् आत् प्रथमान्तम् ऐच् प्रथमान्तं त्रिपदमितं सूत्रं. सूत्रं स्वयं सम्पूर्णं. वृद्धिः आत् ऐच् वृद्धिरादैच् प्रथमं सूत्रम् अष्टाध्यायी इत्यस्य कृते. आकारः ऐकारः औकारः इति येषां त्रयाणां वर्णानां वृद्धिसंज्ञा भवति इति सूत्रं वदति. आकारः ऐकारः औकारः वृद्धिः सूत्रं सूत्रपदच्छेदं वृद्धिः आत् ऐच् वृद्धिः इति प्रथमान्तम् इत्यनेन वृद्धिः संज्ञा विधीयते. वृद्धिः इति किम् इति चेत् वृद्धिः इति त्रयः वर्णाः दत्तम् आत् ऐच् इति प्रत्याहारः ऐकारः औकारः इति एवङ् ऐयौच् इति कृते आत् ऐ आकारः ऐकारः औकारः इति वृद्धिवर्णाः इति सूत्रं वदति. अनन्तरं वृद्धिरेचसूत्रं
तु तत्र नामकरणम् अत्र
नामकरणं संज्ञासूत्रम् आम्
संज्ञासूत्रम्
वृद्धिरेचि अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात्. इदं सूत्रम् आद्गुणः इत्यस्य अपवादः. वृद्धिः प्रथमान्तम् एचि सप्तमीयन्तं द्विपदमितं सूत्रम्. आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम् वृद्धिरेचि इति सूत्रं कार्यं वृद्धिकार्यं किं कदा भवति इति. अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात् इति भवति. अवर्णात् इति कृते अकारः अथवा आकारः प्रथमवर्णः. द्वितीयवर्णः एचि एचि इति ए ओ ऐ औ इति वर्णाः. अकारात् अथवा आकारः परः ए ओ ऐ औच् इति कृते पूर्वपरयोः द्वयोः वर्णयोः स्थाने वृद्धिसंज्ञकः एकादेशः इति भवति. वृद्धिसंज्ञकः कथम् इति चेत् पूर्वसूत्रेण उक्तं वृद्धिरात इति. स अकारः अथवा आकारः प्रथमवर्ण, एकारः ए ऐ ओ औ इति द्वितीयवर्णः. तस्य द्वयोः वर्णयोः स्थाने एक एव वर्णः वृद्धिसंज्ञकः एव आदेशः स्यात् इति सूत्रं वदति.
समीचीनं. तत्र वदतु भगिनि.
इदं सूत्रम् आद्गुणः इत्यस्य अपवादः. पूर्वं वयं पठितवन्तः आद्गुणः इति सूत्रम् अवर्णात् अथवा आकारवर्णस्य कृते अचि पूर्वपरयोः एकः गुणः संहितायाम् इति सूत्रं वदति आद्गुणः. वृद्धिरेचि इदं सूत्रं साक्षात् अनन्तरम् अस्ति. अनन्तरम् अस्ति इति कृते अकारः अथवा आकारः अचि परे इति आद्गुणः इति अनुवृत्तिसहितसूत्रं वदति. अचि इति कृते एचि अपि उल्लेखः भवति. सोम् आत् एचि पूर्वपरयोः एकः वृद्धिसंहितायाम् इति अत्र वृद्धिरेचि सूत्रं वदति इत्यनेन गुणः नास्ति, वृद्धिः एव आदेशः भवति इति कृते अपवादः इति भवति. यतोहि
आत् अचि इत्युक्ते आत् अचि इति मध्ये एचि अपि अस्ति.
एचि अपि अस्ति आम्. सो यत्र यत्र वृद्धिरेचि कार्यं करोति आद्गुणः अपि कार्यं कर्तुम् आगच्छति. देन् वृद्धिरेचि इत्यस्य कृते देन् व्यर्थं भवति. तत् सूत्रं व्यर्थं न भवति भवेत् इति कृते अपवादः इति वयं वदामः.
अपि तत्र वयं जानीमः तत्र एकमस्ति तत्र तस्य उपयोगः भवेत्. अपि द्वितीयमस्ति तत्र यस्य सूत्रस्य कार्यं तत्र क्षेत्रं सूत्रस्य क्षेत्रं लघु अस्ति तस्य फलमस्ति.
एचि इति लघु अस्ति
अतः तत्र वृद्धिः इति सूत्रस्य क्षेत्रं लघु अस्ति.
लघु अस्ति आम्.
अतः लघुक्षेत्रे तस्य फलम् अधिकमस्ति. गुणः इति सूत्रस्य क्षेत्रं
बृहत् अस्ति.
तस्मिन् क्षेत्रे वृद्धिः इति सूत्रस्य क्षेत्रम् अस्ति एकः भागः.
आम्.
किन्तु अतः तत्र वृद्धिः सूत्रस्य एव फलं लघु भागे लघुभगिनस्य तस्य बलम् अधिकम् अस्ति अतः तत्र तद् भवति अत्र अपवादः अपि इति चिन्तयितुं शक्नुमः अप अपि उपयोगः तदपि भवति अतः तत्र अनेके अंशाः तत्र सन्ति उत्तममस्ति अस्तु अपि तत्र अत्रापि प्रायशः तत्र यथा वयं तत्र उरण् रपरः तस्य उपयोगः आसीत् अत्र अपि प्रायशः तस्य उपयोगः अस्ति खलु यतोहि तत्र वृद्धिसन्धि मध्ये अपि तत्र आर् आल् इति भवति
आम् महोदय
अतः तदपि तत्र उरण् रपरः अपि तत्र तत् सूत्रमपि निवेशनीयम् अस्ति अत्र
आर् आर् इति वृद्धि इति भवति
नाम उरण् रपरः इति तत्र रेपस्य स्थाने तत्र आर् तत्र
आर् भवति वृद्धि आकारः आकारः वयं वद आकारः वृद्धि आदेशः स्यात् देन् आर् इति भवति
वृद्धेः आकारः आगच्छति तदनन्तरम् उरण् रपरः इति स्थाने तत्र आर् इति भवति
प्रश्नः अस्ति आद्गुणः इति सूत्रस्य अपवादः अकः सवर्णे दीर्घः परन्तु अकः सवर्णे दीर्घः इको यणचि तत्र अपि अपवादः भवति न
पुनः भगिनि
हि अकः सवर्णे दीर्घः अ अष्टादशभेदाः यत् सन्ति तत्र तु आद्गुणः सूत्रे अवर्णस्य कृते अकः सवर्णे दीर्घः अपवादः भवति परन्तु इ ऊर् तेषां कृते इको यणचि तत्र तदेव सूत्रम् अकः सवर्णे दीर्घः आगत्य अपवादः बाधकसूत्रं भवति न तत्र अपि प्रश्नः
अवगतं भगिनि तत्र
अत्र अकः सवर्णे दीर्घः सूत्रद्वयस्य अपवादः भवति न
भवती तत्र वृद्धिसन्धिः अपि तत्र गुणसन्धेः अपवादः इति उक्तं
गुणसन्धिः अपवादः अकः सवर्णदीर्घः तदपि गुणसन्धेः अपवादः परन्तु अत्र अकः सवर्णे दीर्घः यदस्ति तत्तु सूत्रद्वयस्य
भगिनि न यतोहि तत्र आत् गुणः इति अस्ति खलु तर्हि तत्र गुणसन्धेः तत्र प्रथमवर्णः सर्वदा अकारः एव भवेत्
ओके
तर्हि किन्तु सवर्णदीर्घसन्धेः सन्धिमध्ये तत्र अकः सवर्णे दीर्घः तत्र अकः इति केवलम् अवर्णः नास्ति
अकः तत्र इ ऊर् ल् अपि आगच्छति न अयुन्
अतः तत्र न अतः तत्र सवर्णदीर्घसन्धि गुणसन्धेः अपवादः इति न वक्तुं शक्नुमः यतोहि तत्र अपवादः कदा वदामः यदा तस्य क्षेत्रं तत्र वृद्धिसन्धेः क्षेत्रं गुणसन्धेः क्षेत्रस्य मध्ये अस्ति यदि वयं वदामः आत् अचि इति वदामः सन्धेः क्षेत्रमपि वृद्धिसन्धेः क्षेत्रं किम् अस्ति आत् एचि किन्तु सवर्णदीर्घसन्धेः क्षेत्रम् आत् अचि मध्ये अस्ति वा
सवर्णदीर्घसन्धेः केवलम् अकारः आद्गुणः कृते बाधकः भवति
अतः बाधकः तत्र बाधकः इति वक्तुं शक्नुमः किन्तु सवर्णदीर्घसन्धिः गुणसन्धेः तत्र अपवादः इति न वक्तुं शक्नुमः.
अपवादः न वक्तुं शक्नुमः,
न न वक्तुं शक्नुमः, यतोहि तस्य क्षेत्रं भिन्नम् अस्ति.
हा ओके, तस्य अतः कथं वयम् एक्स्प्लेनेशन् कर्तुं शक्नुमः, कारणं सवर्णदीपसन्धिः.
न भगिनि, तत्र यदि अपवादः इति वदामः तत्र किम्, एतत् करणीयं किन्तु तद् न कुर्मः, अन्यत् कुर्मः खलु. तर्हि द्वितीयकार्यं यत् कुर्मः तस्य क्षेत्रं प्रथमकार्यस्य मध्ये अस्ति खलु. क्षेत्रम् इति अवगमनमस्ति खलु भगिनि, नाम यत्र यस्मिन् सन्दर्भे यस्मिन् सन्दर्भे गुणसन्धिः भवति तेषु सन्दर्भेषु अन्यतमसन्दर्भः अस्ति वृद्धिसन्धिसन्दर्भः खलु. किन्तु सवर्णदीर्घसन्धि कुत्र कुत्र भवति इत्युक्ते गुणसन्धिः यत्र भवितुम् अर्हति तत्रापि कुत्रचित् सवर्णदीर्घसन्धिः भवितुम् अर्हति, किन्तु यत्र गुणसन्धिः न भवितुम् अर्हति तत्रापि सवर्णदीर्घसन्धिः भवितुम् अर्हति. तर्हि तत्र सवर्णदीर्घसन्धिः अपवादः इति न वक्तुं शक्नुमः. समीचीनं खलु.
हा समीचीनं, तदा तस्मिन् समये इको यणचि तत्र कथं वयम् एक्स्प्लेनेशन् दातुं शक्नुमः, केवलं वर्णत्रयम्
आगच्छति अस्ति, तत्र पूर्ववर्ण अस्ति इको
अन्यसन्देहः. भगिनि इदानीमेव तत्र क्लेशः अधिकः अस्ति इति मन्ये, तत्र नूतनसन्देहे आवश्यकता क्लेशजनकार्थं मास्तु इति मन्ये खलु.
अद्गुणकृते अपि इको यणचि कृते अपि सवर्णदीर्घसूत्रम्
दीर्घः तत्र नाम तत्र अकारः अकारः ईकारः ईकारः उकारः उकारः खलु, तत्र सवर्ण तत्र तयोः स्थाने सवर्णवर्णः भवति, किन्तु आद्गुणः इति वदामः तत्र तु आत् इति एव प्रथमवर्णः अकारः एव भवेत्, अतः तस्य क्षेत्रं भिन्नम् अस्ति, सवर्णदीर्घसन्धेः क्षेत्रं भिन्नम् अस्ति.
भिन्नं तु अस्ति परन्तु वर्णः कामन् वर्णः जातः.
भगिनि भगिनि मम अपवादः इति वदामश्चेत् एकस्य क्षेत्रं
सम्पूर्णं
पूर्णतया अन्यस्मिन् क्षेत्रे भवेत् तदा एव अपवादः इति वक्तुं शक्नुमः. तत्र इण्टर्सेक्षन् अस्ति इति एवं वक्तुं शक्नुमः. वन् इस् नाट् कम्प्लीट्लि कण्टेन्ड् इन् इदर्स् यु केनाट् से इट्स् एन् एक्सेप्शन्.
It's partly contained, na?
Partly contained doesn't mean you can say it's an exception, right?
No. Partly contained.
So partly contained, then you cannot say exception. Only when it is completely contained in another, you can say there is an exception.
The word exception. Okay. Badaka Sutra mitusse sampurnataya badam karoti. Ha? Evam, na?
No, no, tadrisham nasti. Yatra dvayoho kshetram. यस्मिन् क्षेत्रे द्वयोः कार्यं भवितुम् अर्हति तत्र प्रथमसूत्रं बाधकं भवति इति एव.
ओके, एतत्
भगिनी
यतोहि
समयः जातः, किन्तु वयं सर्वे अवगच्छामः तत्र किम् अस्ति इति, अतः चिन्ता मास्तु, तर्हि तत्र स्थगयामः. तर्हि तत्र हा नरेश महोदय तत्र अन्ते शान्तिमन्त्रं वदति वा महोदय.
वदामि. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्.
धन्यवादः महोदय. महोदय एका विनन्ती अस्ति.
धन्यवादः.
ध्वनिमुद्रणं स्थापयतु महोदय.